एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः प्रतिनिधि सभया कृषकेभ्यो रासायनिक मलम सहजरूपेण प्रदातुम् सर्वकारः निर्दिष्टो वर्तते। प्रतिनिधि सभायाः गतदिवसीयो पवेशेन समग्र गार्हस्थ्योत्पादने प्रतिशतम् 25% योगदानम् कुर्वतः कृषिक्षेत्रस्य समस्यानाम् समाधानस्य कार्याय प्राथमिकता प्रदानपूर्वकम् अत्यावश्यक रासायनिक मलस्य सहजरूपेण कृषकेभ्यः प्रदानार्थम् सम्भाव्यान् सर्वान् उपायान् अवलम्ब्य कार्यम् सम्पादयितुम् नेपाल सर्वकारः निर्दिष्टो वर्तते। उपवेशे सभामुख अग्निप्रसाद सापकोटा रासायनिक मलम कृषे उत्पादन वर्धनाय अत्यावश्यकम् सदपि सम्प्रति प्रमुख कृषे रूपेण विद्यमानाया धान्य कृषे रोपणस्य समयेऽपि रासायनिक मलस्य अनुपलब्धिर्विषये सदनस्य गभीरम् ध्यानाकर्षणम् सम्भूतमिति अभासत। उपवेशे प्रमुख प्रतिपक्षिणो नेकपा एमाले दलस्य प्रमुख सचेतक पदीयेन विशाल भट्टराई इत्यनेन नियमित कार्यसूचीम् स्थगयित्वा रासायनिक मलस्य अभावस्य विषये विमर्शनाय प्रस्तुतम् सार्वजनिक महत्वस्य प्रस्तावम् आदृत्य विहिते विमर्शने उत्थापितान् प्रश्नान् उत्तरयन् कृषि पशुपक्षी विकास मन्त्री महेन्द्र राय यादवः अवदत् रासायनिक मलस्य विषयः देशस्य संयुक्त समस्या स्थिति हेतोः एतस्याः समस्यायाः समाधानाय सर्वेषाम् सार्थक प्रयासः आवश्यको वर्तते। मन्त्री यादवः आह्वानपत्रस्य दीर्घ प्रक्रियायाः कारणेन कृषकेभ्यः अपेक्षित समये मलस्य प्रदानाय समस्या स्थिति अबोधयत्। मन्त्री यादवः भारत सर्वकारः सर्वकारात् सर्वकार प्रक्रियायाः माध्यमेन लक्ष्य पञ्चकस्य मेट्रिक टन परिमितस्य मलम् दातुम् अनुरुद्धोस्तीति ज्ञापयन् वर्तमानार्थिक वर्षे लक्ष्यस्य 50,000 च मेट्रिक टन परिमाणस्य मलस्य प्रदानाय धृतायाः सहमतेः अनुसारम् आयातः विद्यमानस्तीति अवदत्। सर्वकारेण भारत चीन कुवेत सऊदी अरेबिया तुर्केमिस्तान देशेभ्यो मलम् प्रदातुम् पत्राचारो विहितः सन्नपि ततः किमपि सूचनम् न प्राप्तमिति ज्ञापितवान्। वर्तमानार्थिक वर्षे रासायनिक मलाय 5 दशाब्जानाम् रूप्यकाणाम् विनियोजनम् विहितम् सदपि अतिरिक्तानाम् 2 दशाब्जानाम् 1 सप्ताहे कोटीनाम् च रूप्यकाणाम् परिमाणस्य स्रोता सुनिश्चितम् अस्तीति मन्त्री यादवः असूचयत्। प्रतिनिधि सभायाम् एतद् विक्रम वर्षीयस्य विनियोजन विधेयकस्य विभिन्नेषु शीर्षकेषु विहिते विमर्शने सांसदैः उत्थापितानां प्रश्नानां सम्बद्ध मन्त्रिभिः उत्तर प्रदान क्रमः प्रारब्धो वर्तते। प्रतिनिधि सभायाः गतदिने उपविष्टे द्वितीयोपवेशे भूमि व्यवस्था सहकारी विपन्नता निवारण मन्त्री शशि श्रेष्ठ एतद् संविधानेन व्यवस्थितान् अधिकारान् जनताय प्रदातुम् सर्वकारः प्रयत्नशीलोऽस्तीति अवोचत। मन्त्री श्रेष्ठ 14 लक्षाणाम् भूम्यावासहीनानाम् अव्यवस्थितरूपेण निवसताम् च जनानाम् मध्ये आगामिनि आर्थिक वर्षे लक्ष्य पञ्चकाय जनेभ्यो भूमिम् प्रदानत्वेन कार्यम् विद्यमानमस्तीति सदनम् व्यज्ञापयत्। प्रधानमन्त्री शेरबहादुर देउवा लोसपा नाम्नो लोकतान्त्रिक समाजवादी दलस्य नेतृभिः स्वस्य याचनानां विषये स्मारितो वर्तते। बालवाटारवर्तिनी प्रधानमन्त्री निवासे ह्य लोसपा दलस्य अध्यक्षस्य मन्त ठाकुरस्य नेतृत्वस्य प्रतिनिधिमण्डलेन अस्यैव ज्येष्ठस्य 14 दिवसे अर्पितस्य 11 सूत्रीय याचनाभिः सहितस्य ज्ञापनपत्रस्य विषये प्रधानमन्त्रिणः ध्यानम् आकर्षितम् वर्तते। तदुत्तरे प्रधानमन्त्री देउवा आगामिनः आर्थिक वर्षस्य विनियोजन विधेयकस्य संसदा पारिति भवनस्य अनुपदमेव लोसपा दलस्य याचनाः सम्बोधयिष्यन्ते इति वचनम् प्रादात् इति नेता लक्ष्मणलाल कर्णः असूचयत। लोसपा दलेन जन्मसिद्ध नागरिकतावताम् सन्तत्यै नागरिकता प्रदेया स्वस्य नेतृकार्यकर्तृणां विरुद्धे पञ्जीकारितानि न्यायिक प्रकरणानि प्रत्यावर्तनीयानि चेत्यादि याचनाः प्रस्तुवता प्रधानमन्त्रिणे ज्ञापनपत्रम् प्रदत्तम् आसीत्। गृहमन्त्रिणा बालकृष्ण खाण इत्यनेन वर्षायामजायाः विपदः घटनायां जनधनयो क्षतिम् न्यूनीकर्तुम् पूर्वकार्येषु प्रतिकार्ये च गभीरेण प्रवर्तयितुम् सम्बद्ध निकायाः निर्दिष्टाः सन्ति। विपद संकट न्यूनीकरण व्यवस्थापन कार्यकारी समिते ह्य उपविष्टे उपवेशे समिते अध्यक्षश्च गृहमन्त्री खाण अस्मै वर्षाय विहितेन पूर्वकार्येण जनशक्ते अवस्थया श्राधन स्रोतसां विवरणेन च सहितां विस्तृत त कार्य योजनाम तत्कालमेव लिखित रूपेण मन्त्रालय प्रस्तोतुम निरधिशत उपवेशे एतद् विक्रम वर्षीय वर्षायाम पूर्व कार्य प्रतिकार्य राष्ट्रिय कार्य योजनाया विषय व्यापक रूपेण विमृष्टम आसीत। विमर्शने स्वास्थ्य जनसंख्या मन्त्री विरोध खतिवड़ा प्रतिकार्य दायित्ववाही निकायानाम आपत्कालिकानाम दूरभाषांकानाम साधारण जनेषु प्रापणत्वेन संचार प्रवाहनाय परामृष्टवान। नगरीय विकास मन्त्री रामकुमारी झाँक्री च एकीकृत विकासे विपद्भिः सम्बद्धानि विषयवस्तूनि समावेष्टव्या नीति धारणाम् उपस्थापयत। मुख्य सचिवः शंकरदास वैरागी उद्धार सहयोगेषु राज्यस्य सर्वेषां निकायानां मध्ये समन्वयं विधाय रणनीतिक स्थानेषु पर्याप्त रूपेण उपकरणानां व्यवस्थायाः आवश्यकतां प्रादर्शयत। नेकपा एमाले दलस्य सचिवालयस्य नवमोपवेशेन स्थानीय स्तराणां निर्वाचने दलेन प्रमुख पदेषु सन्तोषजनकं स्थानं प्राप्तुं न शक्तम् इति मत्वा एतद् गभीरेण समीक्षा आगामी कार्यभाराय केन्द्रीभवितुं निर्णीतं वर्तते। च्यासलवर्तिनी दलस्य केन्द्रीय कार्यालये ह्य उपविष्टस्य उपवेशस्य विषये ज्ञापयन् एमाले दलस्य उपमहासचिवः प्रद्युत कुमार ग्यवाली निर्वाचनम् जनतायाः सार्वभौमाधिकार प्रयोगस्य उच्चतमं स्थलमस्तीति हेतुः निर्वाचने सहभागितायाः कारणात् तस्य एतस्य परिणामः स्वीक्रियते इत्यभासत। असौ प्रतिशतं चतुस्त्रिंशता लोकप्रिय मतेन सह एमाले दलं विपुल दलस्य रूपेण अग्रे आगतम् इति तथ्यं स्थापितम् इति ज्ञापयन् स्थानीय स्तराणां प्रमुखेषु अध्यक्षेषु च एमाले दलेन प्राप्तस्य मतस्य सन्तोषजनकतायाः अभावे सत्ता गठबन्धनम् एमाले दलस्य आन्तरकारणं चास्तीति विषये उपवेशे विमृष्टमिति अवदत्। उपमहासचिवः गेमाली अवोचत् नेपालस्य स्वतन्त्रतायां भौगोलिक्याम् अखण्डतायां च आघात निरोधनत्वेन राष्ट्रियतायाः संरक्षणस्य विषयोऽपि उपवेशे विमृष्टः। सचिवालयोपवेशेन आगामिनः आषाढमासस्य द्वितीय तृतीय दिवसयोः काष्ठमण्डपे दलस्य पक्षतो निर्वाचितेभ्यः प्रमुखेभ्यः अध्यक्षेभ्यः अन्येभ्यो जनप्रतिनिधिभ्यश्च स्थानीय स्तराणाम् अधिकारक्षेत्र नीति कार्यक्रमाणाम् निर्धारणक्रमे समावेशनीयानाम् समृद्ध नेपालस्य आधार निर्माणस्य जनप्रतिनिधीनाम् जनतायाः सम्बन्धस्य च विषयेषु अध्यक्षेण केपी शर्मा ओलिना महासचिवेन शंकर पोखरेलेन अन्यैश्च प्रशिक्षण प्रदान कार्यक्रमश्च निर्धारितो वर्तते। उपवेशेन कतिचित् विभागानां संगठन पुरस्सरं तत्र पूर्णता च प्रदत्ता अस्ति। संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की गदति वर्तमान सूचना प्रविधेः विकासवत् वैद्युत सांजालिक सुरक्षापि देशस्य कृते आवश्यकी वर्तते। नेपाल दूरसंचार प्राधिकरणस्य आयोजनायां ह्य राजधान्याम् आयोजिते वैद्युत सांजालिक सुरक्षा सम्बद्ध विधेयकस्य प्रारूपम् आश्रित्य विहिते विमर्शन कार्यक्रमे संचार मन्त्री कार्की अवासत वैद्युत सांजालिक सुरक्षां विना देशः रक्षितुं न शक्यते इत्यतः अस्य कृते विधेर्निर्माणस्य कार्याणि गभीरेण कर्तव्यानि। कार्यक्रमे संचार सूचना प्रविधि मन्त्रालयस्य सचिव डा वैकुण्ठ अरियाल अवोचत् वैद्युत सांजालिक सुरक्षा सम्बद्ध विधेयकस्य प्रारूपम् अधीत्य प्रभावकारी रूपेण परिणामस्य प्रदानत्वेन कार्यमेतद् अग्रे प्रवर्ध्यते। गत वैशाख मासस्य त्रिंशे दिवसे सम्पन्ने स्थानीय स्तराणां निर्वाचने दलित महिला सदस्यै सहिताः प्रतिशतं शून्यैक दशमलव आधिकैक चत्वारिंशत् महिला प्रतिनिधयो निर्वाचिताः सन्तीति निर्वाचनायोगो ज्ञापयति। राष्ट्रियसभाया राष्ट्रिय सम्बद्धता समन्वय समिते ह्यसिम्ब प्रासादे उपविष्टे उपवेशे प्रमुख निर्वाचनायुक्तः दिनेश कुमार थपलिया शान्ति सुरक्षे संस्थाप्य प्रतिनिधिसभायाः प्रदेशसभानां च आगामी निर्वाचनस्य एकस्मिन् एव चरणे सम्पादनत्वेन आयोगेन कार्यं प्रारब्धमिति ज्ञापयन् अवदत् निर्वाचने महिलानां प्रतिनिधित्वस्य वर्धनाय निर्वाचनाधिनियम संशोधन प्रक्रिया अग्रे वर्धितास्ति। पृथ्वी राजमार्गस्य अन्तर्गत आबू खैरेनी मुगलिङ मार्गखण्ड ह्यस्तन दिवसात् पंक्तिद्वयेन सञ्चालितो वर्तते। इति समाचारः।